ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। श्रीशुक उवाच, शर्यातिर्मानवो राजा ब्रह्मिष्ठः स बभूवः, यो वा अङ्गिरसां सत्रे द्वितीयमः ऊचिवान्। सुकन्या नाम तस्यासीत् कन्या कमललोचना, तया सार्धं वनगतो यगमच्यवनाश्रमम्। सा सखीभिः परिवृता विचिन्वत्यङ्घ्रिपान् वने, वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी। ते दैव चोदिता बाला ज्योतिषी कण्टकेन वै, अविध्यन्मुग्धभावेन सुस्रावासृक्ततो बहु। शकृन्मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात्। राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितोऽब्रवीत्, अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम्, व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम्। सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया, द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै। दुहितुस्तद्वच श्रुत्वा शर्यातिर्जात साध्वसः, मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः। तदभिप्रायमाज्ञाय प्रादाद्दुहितरं मुनेः, कृच्छ्रान्मुक्तस्तमामन्त्र्य पुरं प्रायात् समाहितः। सुकन्याच्यवनं प्राप्य पतिं परमकोपनम्, प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः। कस्यचित्त्वथ कालस्य नासत्या वाश्रमागतौ, तौ पूजयित्वा प्रोवाच, वयो मे दत्तमीश्वरौ। गृहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः, क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम्। बाढमित्यु चतुर्विप्रमभिनन्द्यभिषक्तमौ, निमज्जतां भवानस्मिन् हृदे सिद्धविनिर्मिते। इत्युक्त्वा जरया ग्रस्तदेहो धमनि सन्ततः, हृदं प्रवेशितोऽश्विभ्यां वलीपलितविप्रियः। पुरुषाश्रयौ तस्थुरपीच्या वनिता प्रियाः, पद्मस्रजः कुण्डलिनस्तुल्यरूपा सुवाससः। तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः, अजानती पतिं साध्वी अश्विनौ शरणं ययौ। दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ, ऋषिमामन्त्रयेतुर्विमानेन त्रिविष्टपम्। यक्षमाणोऽथ शर्यातिश्चवनस्याश्रमम् गतः, ददर्श दुहितुः पार्श्वे पुरुषम् सूर्यवर्चसम्। राजा दुहितरम् प्राह कृतपादाभिवन्दनाम्, आशिषश्चा प्रयुञ्जानो नातिप्रीतमना इव। चिकीर्षितम् ते किमिदम् पतिस्त्वया, प्रलम्भितो लोक नमस्कृतो मुनिः। यत्त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसे मुमध्वगम्। कथं मतिस्तेव गतान्यथा सतां, कुलप्रसूते कुलदूषणं त्विदम्। बिभर्षि जारं यदपत्रपाकुलं, पितुश्च भर्तुश्च नयस्य धस्तमः। एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता, उवाच तात जामाता तवैष भृगुनन्दनः। शतंस पित्रे तत्सर्वं वयोरूपाभिलम्भनम्, विस्मितः परमप्रीतस्तनयाम् परिषस्वजे। सोमेन याजयन् वीरम् गृहम् सोमस्य चाग्रहीत्, असोमपोरप्यश्विनोश्चवनः स्वेन तेजसा। हन्तुम् तमाददे वज्रम् सद्यो मन्युरमर्षितः, स वज्रम् स्तम्भयामास भुजमिन्द्रस्य भार्गवः। अन्वजानंस्ततः सर्वे गृहम् सोमस्य चाश्विनोः, विषजाविति यत्पूर्वम् सोमाहुत्या बहिष्कृतौ। उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः, शर्यातेरभवन् पुत्रा आनर्तादेवतोऽभवत्। सोऽन्तः समुद्रे नगरीम् विनिर्माय कुशस्थलीम्, आस्थितो भुङ्क्त विषयानानर्तादिनरिन्दम। तस्य पुत्रशतम् जज्ञे ककुद्मिज्येष्ठमुत्तमम्, ककुद्मीरेवतीम् कन्याम् स्वामादाय विभुम् गतः। कन्यावरम् परिप्रष्टुम् ब्रह्मलोकमपावृतम्, आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम्। तदन्ताद्यमानम्य स्वाभिप्रायम् न्यवेदयत्। तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्यतमुवाचः, अहो राजन्निरुद्धास्ते कालेन हृदये कृताः, तत्पुत्रपौत्रणत्रीणाम् गोत्राणि च न शृण्महे। कालोऽभियातस्त्रीणव चतुर्युगविकल्पितः, तद्गच्छ देवदेवांशो बलदेवो महाबलः। कन्यारत्नमिदम् राजन्नररत्नाय देहि भोः, भुवो भारावताराय भगवान् भूतभावनः। अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः, इत्यादिष्टोऽभिवन्द्याजम् नृपः स्वपुरमागतः। त्यक्तम् पुण्यजनत्रासाद् भ्रातृभिर्दिक्ष्वस्थितैः, सुताम् दत्त्वा नवद्याङ्गीम् बलाय बलशालिने। बदर्याख्यम गतो राजा तप्तुम नारायणाश्रमम। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायाम नवमस्कंधे तृतीयोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।